इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। भारत ऋतु विज्ञान विभागेन आईएमडी इत्यनेन ख्यापितं यत् रेमाल इति चक्रवातः अद्य मध्यरात्रिं यावत् बंगलादेशस्य मोंगलायाः दक्षिण पश्चिमे स्थितस्य सागरद्वीपस्य खेपूपारायाः च मध्ये बंगलादेशं तथा तत्समीपस्थं पश्चिम बंग तटं पारं कृत्वा उत्तरदिशि गमनस्य अत्यन्तं संभावना विद्यते। ऋतुविभागानुसारी आगामी द्वित्री होरासु भूस्खलनस्य प्रक्रिया आरप्स्यते। आकाशवाण्याः सह वार्तायां प्रवदता राष्ट्रिय आपत् प्रबन्धन दलस्य महानिदेशकेन पीयूष आनन्देन उक्तं यत् चक्रवातस्य अधिकतमं निरन्तर वायुवेगः दशाधिकैकशततः विंशत्यधिकैकशतं प्रतिहोरा किलोमीटर परिमितात् पञ्चत्रिंशत्यधिकैकशतं किलोमीटर परिमितं प्रतिहोरा यावत् व्याप्तः भविष्यति। पश्चिम बंग सर्वकारः बंगलादेशस्य खेपूपारा बंगाल सागर द्वीप समूहेषु अद्य मध्यरात्रिं यावत् स्थल प्रवेशं कर्तुं शक्नुवन्तः रेमाल चक्रवातस्य दृष्ट्या व्यापकोद्धार पुनर्वास उपायान् कुर्वन्नस्ति। नवन्ना इति राज्य सचिवालये विशेष नियन्त्रण कक्षः स्थापितः अस्ति। कोलकाता आरक्षी मुख्यालये संभाव्य आपत निवारणाय एकीकृत नियंत्रण कक्ष अपि कार्यं कुर्वन्नस्ति। त्रिपुरा राज्ये अद्य रात्रौ रेमल चक्रवातस्य प्रभावेण दिनद्वयोः अतिवृष्टेः संभावनापि विद्यते। राज्यमण्डलस्तरयोः आपत्कालीन संचालन केन्द्राणि नैरन्तर्येण कार्यं कुर्वन्ति। बंगालस्य उत्तर खातेः उपरि रेमाल चक्रवातस्य सज्जतायाः समीक्षायै ह्यः प्रधानमन्त्रिणा नरेन्द्रमोदिना नवदिल्ल्याम् उपवेशनं विहितम्। उपवेशने तस्मै सूचितं यत् राष्ट्रिय आपत् प्रबन्धन दलं पश्चिम बंग सर्वकारेण सह नैरन्तर्येण सम्पर्के अस्ति। लोकसभा निर्वाचनस्य सप्तम चरणाय प्रचाराभियानं सजवं प्रवर्तते। भारतीय जनता पार्टीति दलस्य वरिष्ठो नेता प्रधानमन्त्री च नरेन्द्रमोदी ह्यः उत्तरप्रदेशस्य मऊ बांसगांव मिर्जापुरेषु च जनसभां सम्बोधितवान्। मिर्जापुरे एकस्याम् जनसभायाम् अवोचत् यत् देशस्य जनैः स्पष्टनीतिकारणेन तृतीयवारं भाजपादलस्य नेतृत्वे राष्ट्रिय जनतांत्रिक संयुतेः प्रशासन विरचनस्य निर्णयः स्वीकृतः। प्रधानमन्त्रिणा उक्तं यत् इंडी संयुतेः विपक्षिणः प्रधानमन्त्रिपदम् उपहासास्पदं विधातुं प्रयतन्ते। अपि च भाजपाध्यक्षः जेपी नड्डा जहानाबाद क्षेत्रे जनसभायाम् अवोचत् यत् राष्ट्रिय जनतांत्रिक संयुतिः लोकसभा निर्वाचने प्रबल बहुमतं प्राप्स्यति। अपरत्र कांग्रेस नेता राहुल गांधी हिमाचल प्रदेशस्य सिरमौर जनपदे एकां जनसभां संबोधयन् अवोचत् यत् प्रथमोऽयम् अवसरः यदा कांग्रेस दलं संविधान रक्षायै निर्वाचने प्रयत्नं विदधाति। प्रशासनेन दूरभाष माध्यमेन अन्ताराष्ट्र क्षद्म व्यवहारं निवारयितुं दूरसंचार सेवा प्रदातृभ्यः निर्देशाः प्रदत्ताः। संचार मन्त्रालयेन प्रोक्तं यत् छलिनः भारतीय नागरिकान् वञ्चयितुं अन्ताराष्ट्रिय दूरभाष संख्यानां प्रयोगं कुर्वन्ति। आईपीएल क्रिकेट स्पर्धा मालिकायां निर्णायके द्वन्द्वे गतरात्रौ कोलकाता नाइट राइडर्स दलेन सनराइजर्स हैदराबाद दलं अष्टस्तोभैः पराजितम्। इति वार्ताः।